अयि छात्राः समेषां भवतां स्वागतम्। अस्य अधिवेशनस्य विषयः व्याकरणस्य भूमिका। भारतवर्षे संस्कृतस्य व्याकरणस्य महती परम्परा अस्ति। वैदिकसाहित्यात् आरभ्य अद्य यावत् व्याकरणं लिखितं वर्तते। वेदस्य विभिन्नाभ्यः शाखाभ्यः ब्राह्मणग्रन्थेभ्यः प्रातिसाक्ष्यग्रन्थेभ्यः व्याकरणस्य उपादानं सङ्गृहीतम्। एवं वैदिकप्रातिसाख्येषु व्याकरणस्य शब्दज्ञानविषये महत् ज्ञानमस्ति। तदनन्तरं व्याकरणस्य या परम्परा अनुसृता वर्तते तत्र व्याकरणमूर्धन्यः महर्षिपाणिनिः विश्वविश्रुतः। पाणिनेः वैज्ञानिकता अद्यापि भारतवर्षे सकले विश्वे सर्वत्र एव प्रख्यातिं भजते। पाणिनेः या महिमा सा भारतवर्षस्य प्राचीन सालातुर ग्रामे जन्म लब्धवान् एवं तत्र व्याकरणस्य अध्यवसायं कृत्वा विभिन्नेभ्यः आकरग्रन्थेभ्यः उपादानं सङ्गृह्य प्रायः चतुस्सहस्रसूत्रैः व्याकरणं कृतवान् पाणिनिमहाशयः। तस्य पाणिनेः यानि सूत्राणि वर्तन्ते तानि सूत्राणि विज्ञानसम्मतानि सन्ति। पाणिनेः पूर्वाचार्याः बहवः सन्ति। तेषां नामानि पाणिनिना आदरेण गृहीतानि। गालवः, गार्ग्यः, चक्रवर्मणः एवं सेनकः एवं बहुविधाः व्याकरणाः पाणिनिना सादरं स्वीकृताः। एवं पाणिनेः सूत्रेषु तत्र संज्ञासूत्रम्, अधिकारसूत्रम्, विधिसूत्रम् एवं विधानि बहुप्रकाराणि सूत्राणि पाणिनेः अष्टाध्यायी ग्रन्थे लिखितानि वर्तन्ते। अद्यापि पाणिनेः व्याकरणं शिरोरत्नम् इव भाति। सकले विश्वे पाणिनेः ग्रन्थस्य उपकारितां उपयोगितां विलोक्य वैदेशिकाः अस्माकं देशस्य च मूर्धन्यः विद्वांसः पाणिनेः अनुकरणं कुर्वन्ति। पाणिनेः अष्टाध्यायी अष्टभिः अध्यायैः विभक्ता वर्तते। प्रति अध्यायं चत्वारः पादाः एवं तत्र द्वात्रिंशत् पादाः सन्ति। पाणिनिः वाक्यविज्ञानम् आरभ्य वर्णप्रकरणं सन्धिं कारकं समासं बहुविधं विषयं स्वीकृत्य पाणिनिः स्वकीयम् अपूर्वं व्याकरणग्रन्थं रचितवान्। तस्य व्याकरणग्रन्थस्य परम्परायां तत्र एका परम्परा वर्तते अष्टाध्यायी परम्परा, अन्या परम्परा वर्तते प्रक्रिया परम्परा। पाणिनेः अनन्तरं पाणिनेः सूत्राणां कुत्र कुत्र परिष्करणं कर्तुं वार्तिककारः कात्यायनः समागतः। कात्यायनः उक्तानुक्तदुरुक्तानां परिष्करणार्थं वार्तिकग्रन्थं रचितवान्। एवं तस्य वार्तिकग्रन्थे बहूनां सूत्राणाम् उपरि प्रायः संशोधनं कृतम्। एवं बहुस्थलेषु अपि नवीनं चिन्तनं प्रदत्तं। परन्तु तदनन्तरं वाग्देवतावतारः महाभाष्यकारः पतञ्जलिः समागतः। स स्वकीयं महाभाष्यं रचितवान् एवं महाभाष्ये तत्र पञ्चाशीतिः आह्निकानि सन्ति एवं महाभाष्यं सकल व्याकरणग्रन्थस्य उपादानभूतं वर्तते। पतञ्जलेः स महर्षि आसीत् पाणिनितः आरभ्य पतञ्जलिं यावत् एते जे त्रयः मुनयः सन्ति तान् गृहीत्वा भारतवर्षे त्रिमुनिपरम्परा परिवर्ति। अतः त्रिमुनि इति यदि उच्यते तर्हि पाणिनिः कात्यायनः पतञ्जलिः एते एव तत्र स्वीकृताः सन्ति। एवं पाणिनीयपरम्परायां पतञ्जलिः तस्मादनन्तरं काशिकाकारौ तत्र वामनजयादित्यौ महान्तौ वैयाकरणौ आस्ताम्। एवं तयोः उपादानेन तयोः सङ्ग्रहेण काशिका वृत्तिग्रन्थः रचितः येन वृत्तिग्रन्थेन अष्टाध्यायी परम्परा जीविता वर्तते। परन्तु काशिका परम्परा यथा वर्तते तत्र नागेशः कैयटः एवं महान्तः वैयाकरणः पाणिनेः परम्परां अनुसृतवन्तः। परन्तु सप्तदशशताब्द्याः प्रथमार्धे काश्यां तैलङ्गः भट्टोजी दीक्षितः जन्म लब्धवान्। स एतादृशः वैयाकरणः यस्य अष्टाध्याय्याः उपरि प्रक्रियाग्रन्थस्य उपरि पुनः व्याकरणदर्शनस्य उपरि महान् प्रभावः आसीत्। स अष्टाध्यायी ग्रन्थस्य टीकां रचितवान् शब्दकौस्तुभ इति। प्रक्रियाग्रन्थस्य वैयाकरणसिद्धान्तकौमुदी इति अपूर्वं ग्रन्थं स रचितवान् एवं व्याकरणदर्शनोपरि अपूर्वः ग्रन्थः तेन रचितः वैयाकरणसिद्धान्तकारिका यस्याः कारिकायाः उपरि कौण्डभट्टः वैयाकरणभूषणसारः इति ग्रन्थं रचितवान्। एवम् अष्टाध्यायी परम्परातः अनन्तरं या प्रक्रियापरम्परा जाता तस्यां प्रक्रियापरम्परायां मूर्धन्यः वर्तते भट्टोजी दीक्षितः। भट्टोजी दीक्षितस्य व्याकरणसज्जीकरणम् अपूर्वं। स तु वर्णप्रकरणात् आरभ्य एवम् उपायेन व्याकरणग्रन्थं सज्जीकृतवान् यत् अद्यापि वैयाकरणः भट्टोजी दीक्षितम् अनुसृत्य स्वकीयव्याकरणग्रन्थान् ते सम्पादयन्ति। भट्टोजी दीक्षितः अद्यापि अस्माकं स्मरणीयः गुरुः वर्तते। यं भट्टोजी दीक्षितम् अनुसृत्य अद्यापि नवीनः वैयाकरणः अपि न भारतवर्षस्य विभिन्नेषु प्रान्तेषु ये सन्ति ते भक्तिदार्शनिकाः व्याकरणस्य मूर्धन्या विद्वांसः सर्वे एव व्याकरणस्य नवीनं ग्रन्थं रचितवन्तः। एवं तेषां नवीनग्रन्थानां रचनया दृश्यते पाणिनेः परम्परा कियती समृद्धा वर्तते, कियती विकसिता वर्तते, कियती च वैज्ञानिकी वर्तते। अतएव कृपास्की प्रभृतयः अन्येपि विद्वांसः पाणिनेः महत्त्वं स्वीकृतवन्तः। छात्राः, अस्य भारतवर्षस्य व्याकरणस्य इयं या परम्परा तद्विषये भवताम् अवबोधनिमित्तं मया इयं भाषणं प्रदत्तं, प्रशिक्षणं प्रदत्तं। मन्ये भवताम् उपकारः भवति इति मदीयः आनन्दः। एवम् उक्त्वा विरमामि।